प्रभस्सताञ्ज्येष्ठतमाजसुष्टतिभग्नाभिवसमिधाने हविर्भरे इन्द्रमजुर्यम् जरयन्तमुक्षितम् सनाद्युवा नमवसे हवामहे यस्मादिन्द्राद्बृहतः किञ्चने मृते विश्वाञ्जस्मिन् सम्भृताधिवीर्या जठरे सोमम् तन्वी स होमहो हस्ते वज्रम् भरति शीर्षणि क्रतुम् नक्षोडेभ्याम्बरिभ्येत इन्द्रियम् न समुद्रैः पर्वतैरिन्द्रते रथाः न ते वज्रमन्वश्नोति कश्चन जदाशुभिः पतसि योजना पुरो विश्वे ह्यस्मै यजताय धृष्टवे क्रतुम् भरन्ति वृषभाजसश्च ते वृषा जदस्व हविषा विदुष्टरः पिबेन्द्र सोमम् वृषभेण भानुना वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे वृषडाध्वर्यो वृषभासो अद्रजो वृषडम् सोमम् वृषभाय सुष्वति वृषा ते वज्र उत ते वृषारथो वृषडा हरी वृषभाण्याजुधा वृष्णो मदस्य वृषभत्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि प्रतेनावन्न समने वचस्युभम् ब्रह्मणायामि समने शुदाधृषिः कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सन्न वसुनस्य चामहे पुरासम् बाधादभ्यापवृत्स्वनो धेनुर्न वत्संयवसस्य पिप्लिषे सकृत्सुते सुमतिभिश्यतक्रतो सम्पत्नीभिर्न वृषणो न सीमहि नूनम् सा ते प्रतिवरम् जरित्रे दुहीयदिन्द्रदक्षिणामघोरी शिक्षास्तोत्रभ्यो मातिधग्भगो न बृहद्वदेम विदधे सुवीराः